انا مش كمان لاين كده جنبي حاجه بتسمعني اكتر من مفصل كده طالعين من المره بس كارم برضو هرش كارم بتن كده طالعين من سوت كارم كده بتن كده من الكريم من الكريم نمسك كده كده فيش في الهام كده هي كارم في الدهان ده كام ليه هم بيرتش كده कारक प्रकरणे षष्ठी विभक्ति प्रकरणे स्मः तत्र चतुर्थः अन्तिमस्य पाठः षष्ठी विभक्ति प्रकरणे आदौ शेषषष्ठी अधीतं षष्ठी शेष इत्यारभ्य कानिचन सूत्राणि सन्ति ततः कर्तृकर्मणोः कृति इत्यनेन कारकषष्ठी आरब्धम् कृद्योगे कर्तुः कर्मणश्च षष्ठी विभक्तिः भवति इति सूत्रार्थः यथा कृष्णस्य कृतिः इत्यत्र कर्तुः कृष्ण इत्यस्य षष्ठी विभक्तिः जगतः कर्ता इत्यत्र कर्मणः जगच्छब्दस्य षष्ठी विभक्तिः उभयप्राप्तौ एकत्रैव एकस्मिन्नेव कृति यदा उभयोः कर्तृकर्मणोः षष्ठी विभक्तिः प्राप्नोति तत्र कर्मणः एव षष्ठी भवति इति नियमसूत्रमिदम् आश्चर्यं गवां दोहः अगोपेन इति उच्यते दोहः इति कृदन्तं तद्योगे कर्तुः अगोपस्य तथैव कर्मणः गवां कर्मसम्यकानां गवां च षष्ठीभक्तौ प्राप्तायां कर्मणः अर्थात् गवां दोहः इत्यत्रैव षष्ठी भवति न तु अगोप इत्यस्य अगोप इत्यस्य कर्तकर्णयो तृतीया अध्ययनं तृतीया तथैव वर्तमाने यः क्तप्रत्ययः सो एताभ्यां सूत्राभ्यां षष्ठीविभक्तिं विधाय अग्रे न लोकाव्ययनिष्ठा खलर्थतृणाम् इत्यनेन षष्ठी निषिध्यते लोकानि इनिशियलि सेल् षष्ठी अण्ड् देन् हि negate shashti in some cases. Na lokavya nishtha khalastha pranam. Tatva nishtha ityanena kta ktavatu pratyayam svikriyete. So there are two pratyayas which come under nishtha, which is kta and ktavatu. He thinks that in association with kta and ktavatu, shashti vibhakti na bhavati iti agre uchyate. So anticipating that nishedha, he does punarvidhana. Nishedhe sati punarvidhanam. सप्रत्ययस्य न भवति इति नलोकाव्ययनिष्ठाकरणाम् इत्यनेन उच्यते तं निषेधं वादित्वा पुनर्विधानार्थं सूत्रद्वयं कृतस्य च वर्तमाने अधिकरणमासीत् वर्तमानकाले यः कृतप्रत्ययः तथैव अधिकरणमासी यः कृतप्रत्ययः तस्य यो तेन योगे षष्ठीविभक्तिः भवति इत्यर्थः अत एव वर्तमाने कृतः राज्ञां मतः बद्धः पूजितः इत्यादिषु षष्ठी विभक्तिः भवति एवम् अधिकरणमासि इदमेषामासितं शैतम् उक्तम् इत्यादिषु अपि षष्ठी भवति इत्युक्त्वा तदा ततः निषेधः षष्ठी निषेधः आरभ्यते न लोकाव्ययनिष्ठा खलर्थकृणां ल इत्यनेन लादेशाः स्वीक्रियन्ते उ इत्यनेन उकारान्तः कृत्प्रत्ययः उक इति कृत् प्रत्ययः अव्यय कृदन्ताव्ययं क्त्वा तुमुन् इत्यादयः निष्ठा क्त क्तवतु निष्ठा इति व्याकरणसंज्ञा तयोः प्रत्ययोः खलर्थाः खल् इति प्रत्ययः अस्ति कच्चा कच्चार्थेषु खल् इति सः प्रत्ययः अर्थः येषां तदर्थाः ये प्रत्ययः एवं तृन् तृन् इति प्रत्याहारः इति उक्तम् शानन् चानश् शत्रु तृन् इत्यादीनां प्रत्ययानां प्रयोगे षष्ठी विभक्तिः न भवति इति नलोकाव्ययनिष्ठाकृतनाम् इत्यनेन उच्यते तदेव षष्ठीनिषेधप्रकरणम् इदानीम् अनुवर्तते कण्टिन्यूङ्ग् वित् न जगतः कर्ता अत्र कर्मणोः कृते इत्यनेन कर्तुः कर्मणः सम्यक् अस्ति. कर्ता लोकान् इत्यत्र कः शत्रुप्रत्ययः? कर्ता लोकान् इत्यस्य हा सत्यं कृम् प्रत्ययः. प्रत्ययः डिफ्रेण्ट् अस्ति. जगतः कर्ता इत्यत्र यः अस्ति सः तृच् प्रत्ययः इति उच्यते. So Trich is the general pratyaya, which is the one which you usually see in all this Karta, Bhatta, etc. The Trich pratyaya is just Katrathe Trich pratyaya. Karoti is Karta. He who creates is Karta. Trich pratyaya se yoge Trichi Bhavati. Jagatah Karta iti. Astra yaha lokan, Karta lokan iti asya shuyate saha Trin pratyaya. Anubandhe bhedaha asti, Svare bhedaha bhavati, Arthe pi bhedaha asti. तृन् प्रत्ययः तच्छीलादिषु अर्थेषु इति उच्यते. तच्छील तद्धर्म तत्त्वाधिकारिषु इति तृन् प्रत्ययः एकः. सो तृन् इस् नाट् ऐ मीन् द कर्ता लोकानि द कर्ता इस् नाट् जस्ट् वन् हु डस् हु क्रियेट् लोक वन्स् इन् अ वे. दट् इट्सेल्फ् इस् हिस् शील. कर्तुं शीलं यस्य सः अथवा कर्तुं धर्मः यस्य सः. हि हु क्रियेट्स् इट् एस् हिस् I mean his prabhava itself is creating loka, or his duty itself is creating loka. So it carries that extra meaning. Trin pratyayasya, trich pratyayasya cha, anubandhe bhedaha asti, svare bhedaha asti, arthe cha bhedaha asti. Trin pratyaha yada bhavati, tada shashti nishiddha, nishiddha, naloka vya nishiddha asti lena. Trich pratyayena yogyati shashti bhavati. So, by the vibhakti itself, you can tell what is the meaning. Karta ityanena yadyapi rupe bhedaha na drishyate, tathapi vibhaktim drishtvaiva vaktum shakyate, kaha vivakshitaha arthaha. So, if it's just he who creates, kevalam kartarthaha yadi vivakshitaha, tada shashti vibhakti hi bhavati. Jagatah karta, lokanam karta ityapi bhavati. Yadatu, tan तच्छीलत्वं प्राच्छील्यं साधर्म्यं तादृशाः अर्थाः विवक्ष्यन्ते तदा तु द्वितीया विभक्तिः भवति. जगत्कर्ता इत्यपि भवति. अर्थे भेदः अस्ति. सो दट् इस् द फेसिलिटीस् आफ् यूसिङ्ग् संस्कृत एण्ड् विभक्ति. विभक्ति विभक्तिं दृष्ट्वा एव कः अर्थः विवक्षितः इति वक्तुं शक्यते. Continuing with Shashti Nishedha, Akenor Bhavishya Adhamaniyoho iti Agrimam Sutram. Akenoho Aka Ina iti Pratyayadvayam, Bhavishya Adhamaniyoho iti Arthadvayam. So it indicates the Shashti Shesha iti Taha Shashti iti Anuvartate, Naloka Vaya Nishthakala Sutranam iti Taha Na iti Anuvartate. So yaha Shashti Na Bhavati. So, in association with these two pratyayanta, shashti will not be there. Bhavishyati akasya. Aka nul pratyayana tasya aka adeshaha hoti. So, krit pratyayana aka itiski, bhavishyadarthe yaha aka iti pratyayana. Bhavishya nathamanyarthe inashya yogi. And in is another pratyaya, which can be either in bhavishyadartha or nathamanyartha. So, एतैः योगे षष्ठी न भवति. षष्ठी निषिध्यते. ततः पालको अवतरति. अत्र ततः इति द्वितीया बहुवचनम्. सन् सन्तौ सन्तः सन्तं सन्तौ सतः. सत्शब्दः द्वितीया बहुवचनम्. सज्जनान् पालकः इत्यर्थः. सज्जनान् इति द्वितीया बहुवचनम् अत्र. ततः पालकः अवतरति. सो अत्र पालकः इत्यनेन मुन्मुलौ क्रियायां क्रियार्थायाम् इत्यनेन भविष्यदर्थे मुल् यः अग्रे सज्जनान् पालयति. इदानीं सः कृषि न करोति चेदपि अग्रे सः सज्जनान् पालयति इत्यर्थे पालधातोः मुल् प्रत्ययः तस्य अकादेशः. सो द अकार इस् हियर् इन् दिस् पालक इस् भविष्यदर्थे अक. सो अनेन योगे किम् इति न भवति इत्यत्र ततः बालकः इत्यत्र द्वितीयविभक्तिः श्रूयते. तेन चेत् देर् वन् मोर् द जनरल् रूल् विच् इस् इन् दिस् कर्तृर्थ पालयति इति पालकः इति भवति एवं भविष्यति पालयति इत्यर्थे अथवा पालयितुमेव क्रियायां क्रियार्थायां ततः बालकः अवतरति इत्यत्र कोऽर्थः पालयितुम् एव तस्य अवतारः. हिस् अवतार इस् फार् द पर्पस् आफ् प्रोटेक्षन् आफ् सज्जनास् इन् द फ्यूचर् सो इट् केरीस् एन् अडिशनल् मीनिङ्ग्. अस्मिन् अर्थे सज्जनान् पालकः अवतरति ततः पालको अवतरति इति भवति. यदि तु केवलं पालयति इति पालकः जस्ट् कर्तर्थ हि हु प्रोटेक्ट् इस् पालक इत्यर्थे जस्ट् लैक् वि डिस्कस् विद् कृच् एण्ड् कृन् हियर् आल्सो देयर् इस् प्रत्यय इस् आल्सो द सेम् नूल् इट्सेल्फ् इस् मैंडेटेड् इन् डिफरेंट सेन्सेस्. केवलं कर्तर्थे यदा नूल् प्रत्ययः तदा सतां पालकः इति षष्ठी अपि भवितुम् अर्हति किन्तु ततः पालकः इति द्वितीयया अधिकः अर्थः गम्यते. भविष्यदर्थे नुल् इति अर्थः गम्यते. सो दट् इस् अक भविष्यति अकः भविष्यति अक प्रत्ययस्य देन् इन् सो इन् इन् गिव्स् टु एक्साम्पल् व्रजं गामि शतं रायि व्रजं गामि इत्यत्र गमेरिणिः इति भविष्यदर्थे औणादिकः इन् प्रत्ययः दट् इस् इन् प्रत्यय भविष्यदर्थे व्रजं गमिष्यति इत्यर्थे व्रजं गामि इति इन् गामि गामिनौ गामिनः गामिन् इति नकारान्तं प्रातिपदिकम् भविष्यदर्थे इन् प्रत्ययः तेन योगे षष्ठी न भवति व्रजस्य गामि इति न भवति व्रजं गामि इति द्वितीया एव भवति. एवं शतं दायी आवश्यक आधमरणीयोः इनिः इत्यनेन विषयः శతం దాస్యతి so he will return it back ityarthe satam dahi adhamanye in pratyah tena yoge shashti na bhavati. Kṛtyānām kartarīva iti agrimam suktam. So we had Shashti Nishedha. First Shashti Vidhanam, Shashti Nishedha, Iranim Shashti Vikalpaha. Kutyam Kutyanam Kattari Va Vikalpena Shashti Jena Vatpate Vikalpena Shashti Bhakti Bhavati. It is Vradam Gami. It is Vradam Gamishyati. Vraja is the name of the country. Vrajadeshaha. Atava the place where the cowherds lead. That place is called Vraja. So Vrajam Gami, Pradesham Gamishyati Ittartha. Bhavishyati in Pratyaya. Okay. Kṛtyānām Kartari Va. Shashti Vasyat. It is Uttartha. So the Shashti is given optionally. Kada Kṛtyānām Yogi. Kṛtya Pratyaya iti Santi. Kṛtya Pratyaya iti कृदन्तेषु अन्तर्भवन्ति. देयर् आर् सब् क्लास् आफ् कृदन्त. कृत्याः इत्यधिकारे सप्त कृत्कृतयः युधा. देयर् आर् सेवेन् प्रत्ययस् विच् आर् गिवन्. दे आर् काल्ड् कृत्याः. दे आर् कृदन्त. कृदन्तानां मध्ये एव कृत्याः इति एकः गणः अस्ति. तेषां योगे कर्तरि षष्ठी विकल्पेन भवति. सो यु हाव् Shashti Vibhakti. All these pratyayas are bhavakarmano. They are mandated in the sense of bhavartha or karmartha. So karta is anabhihita. Kartari Shashti praapnoti vikalpena bhavati. Uttartha. Kesham yoge kartari Shashti vikalpena bhavati. Kesutya pratyayaha. It is said that tavyat tavya aniyaraha. So you have tavyat and tavya. Rupe punaha bhedaha na jnayate asmaatihi. We cannot tell the difference in Rupa. There is a Swara difference which matters in the Veda. Which is the usual Kavya which we hear. पठितव्या, गंतव्या, कर्तव्या इत्यादि. अन्य ये वेरी फेमस करणीय, गमनीय, पठनीय है. यत, नियत एंड त्यप, ऑल दीज रूप साउंड केम दे एंडिंग या. सो यू हैव कार्य, भार्य, गम्य, कृत्य एक्सेट्रा. ऑल दोज आर एंडिंग इन यत, नियत और त्यप. So the difference, there is no difference in rupa. I mean, there might be difference in rupa, but you generally hear that ya at the end of it. That is the identification of yat, nyat, and tyap, and there is a special pratyaya called kelimar. So all these seven together are called kritya pratyaya. Etai yoge yada kritya pratyaya bhavanti tada kartari shashti vikalpena bhavati ityartha. Maya mama va tebhyo harihi haritevyah. हरी शुड बी सर्व सेव्य रुहलोर न्यतन नियत प्रत्यय अस्त अयम कृत्य प्रत्यय. सो मया सेव्य मम सेव्य उभय साधु कर्तरी षठी यदा तदा मम सेव्य हरी यदा तो नवती विकल्प षठीय षष्ठा अभाव तृतीया भवति कर्तकर्णयो तृतीया मया सेव्यः मम सेव्यः इत्युभयं साधु. सो दिस इज देयर अगेन यू हैव मम करणीयं लोकहितं मम करणीयं इत्युच्यते षष्ठी भवति यदा न भवति तदा मया करणीयम् इत्यपि साधु. ओके सो बोथ आर करेक्ट. यू कैन से लोकहितं मम करणीयं लोकहितं मया करणीयम् उभयं साधु बिकॉज इट इज अनीय अनीय कृत्य प्रत्यय. कर्तरी इति किम् येयः मानवकः साम्ना. सो द सूत्र से कृत्यानां कर्तरी वा कर्तरी षष्ठी विकल्पेन भवति. किमर्थं तथा वक्तव्यम् इति प्रश्नः. बिकॉज़ द क्वेश्चन द रूट ऑफ द क्वेश्चन लाइज इन द फैक्ट दैट एज़ आई टोल्ड द कृत्य प्रत्यय आर ऑलवेज इन कर्मार्थ और भावार्थ. भावार्थे कर्मार्थे वा भवन्ति. So in association with kritya pratyaya, you can generally have only kartari shashti eva bhavitum arhati, karmani shashti bhavitum narhati, abhijitatva. Since the karma has already been given by the pratyaya, pratyena eva karmana abhijitatva, tadyoge kartari shashti eva bhavati. You will have, by nature, you will have only kartari shashti, you can have kartari shashti. तद विकल्पते किमर्थम कर्तरी वा इति वक्तव्यम् इति प्रश्न. स्पेसिफाइड कर्तरी षष्ठी विकल्पेन भवति, कर्मणि षष्ठी तु न भवत्येव किल इति प्रश्नः. हि गिव्स एन एग्जांपल वेयर विथ इवन विथ सत्य प्रत्यय यू कैन हैव कर्मणि षष्ठी. येयो मानवकः साम्नाम, मानवकः नाम बालः, साम्नाम येयः सामान गायति इत्यर्थः. सिहि सिंह साम गहिं फ्रॉम सामवेद. अत्र ज्ञेयः इति यत् श्रूयते तत् कर्मणि नास्ति. यत् प्रत्ययः दिस् इस् यत् प्रत्यय कर्तरि यत् प्रत्ययः भव्यय प्रवचनीय उपस्थानीय इत्यादिना सूत्रेण कर्तरि यद्विधानात् अनभिहितं कर्म. यत् प्रत्यय बै डिफॉल्ट इट इज इन कर्मार्थ, बट इन दिस केस स्पेशल केस देयर इज अ कर्तरि यत् प्रत्यय ज्ञेयः इत्यनेन कर्ता अभिधीयते. कर्ता अभिधीयते इत्यतः कर्तुः प्रथमा विभक्तिः, मानवकः ज्ञेयः इति. कर्म अनभिहितम् अनभिहितत्वात् कर्तकर्मणोः कृति इत्यनेन कर्मणि षष्ठी प्राप्नोति, नित्यं भवति. कर्मणि षष्ठी इस् नाट् आप्शनल् इन् असोसियेशन् वित् कृत्य प्रत्यय. ओन्ली कर्तरि षष्ठी इस् आप्शनल्, कर्मणि षष्ठी इस् नाट् आप्शनल्. That is why geyaha manavakaha samnam iti shashti eva bhavet. Atra jitiya vibhakti hi na bhavati. You cannot have jitiya, shashti is compulsory. So you see, yat pratyena karta abhihita. Always you should have this in mind, abhihita and anabhihita. Yat pratyaha kartrathe asti. Arthati karta abhihita. Ataha kartuhu manavakasya prathama vibhakti. Kartuhu abhihita svaate, pratiparikarthe prathama. कर्म अनभिहितम्
The karma which is kama has not been told by anything. Adaha katya karma no kriti isenena nityam shashti bhavati. Kattari shashti vikalpyate, karmani shashti to kritya prasayana amyogyati nityam bhavati. Akra yoga vipajyate kritya anam. There is one more. Concept he introduces here is the yoga vibhaga. Yoga vibhaga ha purvamsi vishtaha. Yoga chyanama sutra se vibhaga ha. The sutra, that which is a single sutra, is split into two sutras. That is called yoga vibhaga. So atra yoga ha vibhajyate. The krityanam kattariva iti sutram dvedha vibhajyate. Katham prathamam sutram asti krityanam. You make krityanam as a separate sutra. And then kattariva iti dhinnam sutram. Krityanam iti sutra asti kostaha iti dhanyam jastha. Krityanam iti sutra naloka vyanishtha kalastrasanam iti taha na iti anuvarthate. Ubhayaprāptau karmani ityataha ubhayaprāptau iti anuvartate na ityati anuvartate. Kaha arthaha sutrasya tathāca kṛtya yoge, kṛtya prate yoge, kartrukarmanoho ubhayoho pratatta shashti na. Yada ubhayaprāptihi bhavati, arthāca kartrapi shashti bhavati, shashti prāpnoti, karmanaha api shashti prāpnoti, tada na bhavati, ubhayoho na bhavati. Ityarthaha Bharati, Kevalam Krityanam. So the first sutra, we split the sutra into two. One is, One is Krityanam and the other is Kartari. Okay. So when you say Krityanam, the sutra Krityanam, Arthakaha Bhavati, Ubhayaprāptau na iti anuvartya, Krityayoge, Kartrukarmanohu, Ubhayohu prasatna chasti. When there is Ubhayaprāpti, Shashti na bhavati. Ubhayoho shashti na bhavati. Iti uchyate. Tena netavya vrajam gavaha krishnena. So you see there is a vikarmaka. Gavaha netavyaha. Okay. Gauhu iti pradhanam karma. Tasya netavya ityanena karmanaha abhihitatvata. Gavaha ityate prathama. Gavaha netavyaha. Tena netavyaha. Krishnena netavyaha. Karta krishnaha. So kartuhu shashti prasnati, vrajam netavyaha, vrajam iti apradhanam karma. So snehatu is dhikarmaka, you have two karma pada. The pradhana karma has been told, abhidhanam avhutkena netavya ityanena, apradhana karma namato anabhihitatvam asti. So even though the pradhana karma has been told by the suffix, the apradhana karma is still anabhihita. So apradhana karma naha shashti bhavati, shashti prapnoti, kartushyat shashti prapnoti. So you have ubhaya prapti. Rare case where both kartru and karmanoho shashti prapta. Sada kim bhavati? So chayar yoga ubhaya prapto karmani iti shashti na bhavati iti uktatva. Netavyaha vrajam krishnena. Kartruho api shashti na bhavati, karmanaha api shashti na bhavati. So both of them do not have shashti. So you have krishnena iti akra. Kartakaranayam sutiya ityanena sutiya ayamakti. Vrajam ityatra karmani dvidiya ayati dvidiya ayamakti. So both of them are prevented. Ubhaya prapto karmani ityanena ki uchyate. Ubhaya prapto karmana ha chishti iti uchyate. Krityair yovetu yari ubhaya prapti hai. See? Tarhi ubhaya ahu shashti na bhavati. So shashti will not occur for either karta or karma. So you have their original vibhaktis there. Netavyaha vrajam gavaha krishnena. Idam prathama sutrasya phalam. So you have split the yoga. So the first sutra now is useful for preventing shashti for both karta and karma in association with krutya in case of ubhaya prapti. Ubhaya praptau krutya yoga kartuhu karmanaha ubhayohu shashti nishedhartham prathamam sutram krutyanam. Dvitiyam sutram asti kartari va. Kartari va iti kartya kritya nam iti anuvartate. उक्तः अर्थः. सो नौ द सेम मीनिंग ऑफ व्हाट यू हैड फॉर सस्यानां कर्तरिवा कैन बी अचीव बाय दिस कर्तरिवा सस्यानां इति अनुवर्तते. सो कृत्येयोगे कर्तरि षष्ठी विकल्पेन भवति इति यः अर्थः उक्तः सः द्वितीयसूत्रस्य भवति. सो यः वन् एक्स्ट्रा सूत्र बेसिकली नियोगविभाग यु ऑलवेज हैव एन एक्स्ट्रा सूत्र विच इज कृत्यानां. सो इट हैज एन एडिशनल पर्पस ऑफ प्रिवेंटिंग षष्ठी फॉर बोथ कर्ता एंड कर्म इन केस ऑफ उभय प्राप्ति. ओके क्लियर. So that's the end actually the Vakyasya kaha kaha katya Vakyasya. Ravaha Krishnena Vajam Netavyaha. The cows must be taken will be taken to Vraja by Krishna. Krishna takes the cows to Vraja. Should take her. Netavya ityatra vahaha kaha. Niyamte ityasaha savana. He takes the cows to Vraja. तुल्यार्थे रतलोपमाभ्याम तृतीयान्य सदस्याम चत्वारि पदानि सन्ति. तुल्यार्थैः अतिलोपमाभ्याम तृतीया अन्य सदस्याम. They should have been Shashti. Netavyana Vajamgaha Krishna. Netavya is a Krit Pratyayantra. Since it is Krit Pratyaya, Siddhantena Yoga, Kartuhu Shashti, Kartu Karmano Kriti, just like Krishnasya Kriti, it should have been Krishnasya Netavyaha and Rajasya Netavyaha. Kartuhu Krishnasya Karmanaha Rajasya Shashti Prasnati. Kena Sutrena. Katra Karmano Sruti Ityanena Shashti Bhaktihi Prasnoti. So first instance, if you forget all other sutras, if you just have the sentence, still the first karma, Pradhana Karma, has been Abhihita. So that will get Prathama, no questions about it. But you have Karta who is Krishna. Katra Karmano Sruti, Sruti Yoga, since Netavya is a Kridanta, you should get Shashti. And Vraja is Karma. So again, नेतव्य कृतं कर्मणः षष्ठी भवति कर्तकर्मणोक्ति. सो ओवरूलिंग कर्तकर्मणोक्ति विहार सूत्र उभयप्राप्तौ कर्मणि यत्र उभयोः प्राप्तिः भवति. इफ देयर इज अ केस वेयर बोथ कर्ता एंड कर्म गेट हैव द चांस ऑफ गेटिंग षष्ठी तदा किं भवति कर्मणः एव भवति. सो इफ यू यूज उभयप्राप्तौ कर्मणि यू शुड हैव गॉट षष्ठी फॉर एटलीस्ट ब्रदर. So, even if you don't have for Krishna, Vrajasyava, Shashti Bhavet, Hindu, Ubhayohu Neshyate. We do not want Shashti for both. Prayoge Ubhayohu Shashti Nasti. Katham Shashti Nishedha Iti Krishna. Then how do we prevent Shashti for Vraja? Krishna, we can somehow prevent. How do we prevent Shashti for Vraja? Vraja should get Shashti. Tada Yoga Vibhata Kriyate. We split the sutra. And by splitting the sutra, the sutra krityanam now gives the meaning krutya yoga. If it is a krutya pratyayanta, ubhaya praptau shashti na bhavati. So if it is krutya pratyayanta and ubhaya prapti, there is no shashti. So because of that, we have dvitiya. Otherwise, in the absence of this yoga vibhaga, we cannot prevent shashti bhakti for vraja. Is it clear? Maya Vidyalayaha Gantavyaha, as we saw, was Ubhaya Praptihi Nasti. Mama Vidyalayaha Gantavyaha Yasyati Sadhu. You can use Mama and Maya. Because the sutra, the Kattariva, or Pratyanam Kattariva says, if it is Krishya Satya, you can have an optional Shashti. So you can either say Maya Vidyalaya Gantavyaha or Mama Vidyalaya Gantavyaha, which is both correct. किमर्थम् इत्युक्ते सत्यानां कर्तव्य इति सूत्रं तदेव वदति किल. ऐ डि नाट् अण्डर्स्टाण्ड् द क्वश्चन्. सत्यानां कर्तव्य केन् अप्लै ओन्ली इन् केस् आफ् कर्तरि षष्ठी. इट् गिव्स् एन् आप्शन् फार् कर्तरि षष्ठी, not for Karmani Shashti. This is what he told in the previous case. Yeha manavatam samnam Karmani Shashti nityam bhavati. There is a difference between Kartari Shashti. When you are saying Maya Vidyalaya or Mama Vidyalaya, in both cases Maya is Karta. Kartari Shashti vikalpena bhavati. But it cannot give an option for Karmani Shashti. So, even if you have Krityanam Kartaiva, you cannot prevent Karmani Shashti in this case. कृष्णेन नेतव्यः कर्तुः षष्ठी तु निषिद्धः, दट् इस् फैन्. बट् व्रजम् इत्यस्य षष्ठी निषेधः कर्तुं न शक्यते. कर्मणि षष्ठ्याः निषेधः नास्ति. कृत्यानां कर्तैव गिव्स् एन् आप्शन् ओन्ली फार् कर्तरि षष्ठी. सो इफ् इट् वास् कर्तृत्वे यदि षष्ठी तदा विकल्पं कर्तुं शक्यते. कर्मार्थे षष्ठी तु नित्यं भवेत्. अत एव पूर्वं तदुदाहरणं दत्तम्. That is why this is the first case of Udaharanam. He says, Yeyaha manavatah samnam karmani shashti nityam bhavati. If it is karmani shashti, it has to be nitya. So once he tells that, immediately the next question raises, how do you substantiate this prayoga? Vrajam gavaha karmanaha kumartham shashti naasti. It is prasnaha. Tadartham eva yoga vibhava shrutaha. Is this okay? Difficult? Yes, but you should understand the logic. I mean, you should notice in Shastra Grantha, it is all like linked. So why does Dikshita give this particular example? It is all linked to each other. I mean, he is very, very logical and very careful in selecting his examples. If I say Satyanam Kartaiva, he gives a common example. Then he gives an example saying karmanaha shashti nityam bhavati. So as soon as he gives that example, the next question logically should arise. I mean, it will not arise for us, for you or me, because I mean, we are at a very low level. We don't even know that there is a such a prayoga. But at the shastric level, this question will logically give a question. And as soon as you say that karma should always give shashti, you have a question, then how is this prayoga? There is a prayoga where karma has not got shashti. So how do you substantiate it? So immediately he has to come up with an answer. So he starts with yoga vibhava. So shastra is always a case where he himself raises the question and has to give the answer. Because students of shastra are not at a level where they can raise this question. So he himself raises the question, how do we substantiate this prayoga? And he answers that. So you should follow the entire prakarana. That is why the adhyayana of Vyakarana is not just sutra by sutra. If you go just, you finish, okay, that sutra is over, keep it aside. You will not understand either why there is a question or what is the answer. Right? So it is difficult, certainly. Shastram, Kastam Shastram is an example which Dikshita himself gives from that. It always requires repetition. The first time when you hear a shastra, it is almost impossible to actually assimilate it fully. Even me, when I studied this Tarata Prakarana probably, I didn't understand anything. I just saw something and said, okay. At one certain level, some of the things we understand, but the rest, or why all this, if you had asked me, say, 3 years ago, I might not be able to tell. It's only now that I'm going through it some third time, fourth time, fifth time, that we understand what he means to say. So he should not be discouraged at the first place. Listen to it again, he'll understand something, but always only after you go ahead is when the shastra in the previous case becomes clear. So it's always the case in shastra. So that is why that what the shloka is very relevant. Acharya padam adhate padam shishya samedhaya padam sabdam acharya. You do all that. You put full effort. Even if you put 100% of your effort, even if your teacher puts 100% of your effort, you take everything from your classmates. Padam kalakramena. There is 25% which requires time to mature. Even if you put full effort, it is not possible to grasp everything at the first attempt. That kala, it makes, I mean, it has a lot of effect which you do not realize usually. It's only when you go further and you're telling something totally probably different. You're telling something else and suddenly there is a flash. Oh, this was what was meant there. So that is the thought of Shastra always. Okay. So, don't worry, all things will become clearer later. Ashtama Greya Pavishyati. There is one more sloka, one nice sloka, this one. In jest. There is a person who always, I mean, using that Padam Kalakramena, there is one teacher who says that for everything. So any question you ask, you say Ashtama Greya Pavishyati. Everything will be clear in the future. So, it says that should not be the attitude of a teacher. I mean, just because the student might not understand, he should not defend himself saying you will understand this later. It is the teacher's duty to explain everything. It is the student's duty to hear everything and try to understand. Still, complete understanding might not happen at that instant. But the samskara will remain always. You have heard this, sometime, someday, you will understand. Okay, so there is one more question. Kartuha Shashti Kena Nishiddham, Ubhayamapi Tenaiva Nishiddham. Krityanam iti Sutrenaiva, Ubhayohu Prasatta Shashti Na Bhavati. It says, if it is Ubhaya Prapti, Krityanam Yoge Yadi Ubhaya Prapti Hesti, Tarki Ubhayohu Na Bhavati. It says, Kartuha Api Shashti Na Bhavati, Karmaha Api Shashti Na Bhavati. The single sutra is preventing Shashti for both Karta and Karma. Krityanam iti yoga vibhageneva ubhayohu nishedhaha bhavati. Tulyarthe ratulopamabhyam krityanyatarasyam. Tulyarthe iti yoga. Tulya means equal. Samaha sadrishaha ishtyanayam. Taiti yoga krityya vasyad. Vikalpena krityya bhavati. Sutiya anyatarasyam ityasya vikalpaha ityasaha. Vikalpena sutiya bhavati. So, sutiyayaha bhave shashti bhavati. So, you have the usual shashti bhavati. Sheshe shashti bhavati. Tuliyaha sadrishaha samova krishnasya krishnenava. So, krishnasya samaha or krishnena samaha. Krishnasya tuliyaha, krishnena tuliyaha. Anena sutrena sutiya vikalpena vidhiyate. So, you can have either tritiya or shashti. So, Krishnena samaha iti tritiya or Krishnasya samaha. Evam Krishnena sadrishaha, Krishnasya sadrishaha. Krishnena tulyaha, Krishnasya tulyaha. Sarvam bhavati. You will have both, I mean, either shashti or tritiya. Tulyarthaihi tritiya anyatarasyam. Atulopama abhyam. It is the kortaha. So, there are two words. Tula and upama. When those particular words are used. Atula, a, tula, upama. Tula, ishtrasya, sadeva. Equal ishtrasya, upama. So when those particular words are used, shashti, tritiya na bhavati. The sutra will not apply. So you will not have tritiya. Sheshe shashti, sheshe ishtyanena, shashti bhavati. Tula, upama va, krishnasya nasti. Krishnasya tula nasti. There is nobody equal to Krishna. There is no comparison to Krishna. Evam krishnasya upama nasti. Ubhayoho samanaha astaha. There is no comparison with Krishna. Astaha. Atra tu tula upama ityetayoho sabdayoho prayoge. When these two exact words are used, tada tritiya na bhavati. This sutra will not apply. Shashti sheshe ityanena shashti bhavati. So krishnasya. Krishnena tula, krishnena upama iti na bhavati.
छन्दनाथ सूत्र इन षष्ठी उपस्थित प्रकरण चतुर्थी दशिष आयुष्य मत्र भद्र कुशल सुखास्थ हित अन्यतर से विकल्प इत्यर्थ तो वा विभाषा एंड अन्यतर से थ्री वर्ड्स विच पाणिनि यूजेस अकॉर्डिंग टू शास्त्र वी टेक देम ऑल एज सिनोनिम्स फॉर विकल्प और ऑप्शन इत्यर्थ चतुर्थी च आशिषि आयुष्य मंत्र भद्र कुशल सुखार्थ है सही So actually there should be this Paracheda and I have missed one word. There are four words in the sutra. So Chaturthi cha Aashishi Aayushya Madra Bhadra Kushala Sukhartha Hitaiti. So Chakwari Padani Santi Sutra Aashishi Iti Maya I somehow skipped it. Eta Dartha Ihi Yoga Aashir Arthe Eta Ihi Shabda Ihi Yoga Or Eta Dartha Ihi Shabda Ihi Yoga चतुर्थी विकल्पेन भवति चतुर्थी च इत्यर्थवाद विकल्पेन चतुर्थी भवति पक्षे षष्ठी अन्यतरस्याम् इति अनुवर्तते चतुर्थी इज गिवन ऑप्शनली सो व्हेन देयर इज नो चतुर्थी देयर इज षष्ठी एज आशिषि आशिषि नाम किम् आयुष्यम् चिरंजीवितम् कृष्णाय कृष्णस्य वा भूयात् आशि एज आई थिंक वी डिफाइंड इट समवेयर इन प्रीवियस क्लास It is just a desire for something to happen. It need not be direct blessing. Let something happen. It is ichha eva aashihi ishtyarthe. So, Krishnaya aayushyam bhuya. Krishnasya aayushyam bhuya. So, the first word here is aayushya. So, aashir arthe eta ihi yoge. So, when all these words are used in the sense of aashihi, in the sense of desire or blessing, tada, चतुर्थी अपि भवितुम् अर्हति षष्ठी अपि भवितुम् अर्हति कृष्णाय आयुष्यं भूयात् कृष्णस्य आयुष्यं भूयात् सो आयुष्य चिरंजीवित इज अ सिनोनिम ऑफ आयुष्य इट इज नॉट ओनली द वर्ड विच इन दिस सूत्र बट ऑल्सो देयर सिनोनिम आयुष्य इत्यस्य ये ये पर्याय पदानि सन्ति यानि यानि पर्याय पदानि सन्ति तेषां योगे अपि चतुर्थी षष्ठी भवतः So you have Krishnaya Chiranjeevitam Bhuyat, Krishnasya Chiranjeevitam Bhuyat. So with that there is Ashiratha and the usage of these such words. The words which mean Ayushya, Madra, Bhadra, Kushala, Sukha, Artha and Hita. So evam, similarly, Madram, Bhadram, Kushalam, Sarvam, Bhuyat, Ityatra, Anvayaha. So Krishnaya Krishnasya va Madram Bhuyat. सर्वत्र तथा अन्वयः कृष्णाय कृष्णस्य वा भद्रं भूयात् कृष्णाय भद्रं भूयात् कृष्णस्य भद्रं भूयात् सो लेट देयर बी भद्रं नाम मंगलम् भद्र एंड भद्र बोथ मीन द सेम व्हिच इज मंगलम् इत्यर्थः कुशलम् निरामयम् कुशलम् इज टू बी इन गुड हेल्थ टू बी सेफ एंड हेल्दी इत्यर्थः कृष्णस्य कुशलम् भूयात् कृष्णाय कुशलम् भूयात् In all these cases, you have both Shashti and Chaturthi. Similarly, Niramayam. Niramayam is a synonym for Kushala. Amaya is Vyadhi, Roga. Tasya Abhavaha. So, being healthy is Niramaya and Kushala. Krishnasya Niramayam Puya, Krishnaya Niramayam Puya. Sukham. Krishnasya Sukham Puya, Krishnaya Sukham Puya. And Sham. Sham means Sukham. Again. It means paryaya. It is a paryaya pada of sukham. Artha, Krishnasya artha bhoya, Krishnaya artha bhoya. So artha has a wide range of meanings. Here it is used in terms of prayojana. It is something which he desires, something which he wants. Prayojana, something useful. It is artha. Hitam pachyam. There is hita, so hitam. Pachyam, that which is good for somebody, is hita or pachya. So, Krishnasya hitam bhuya, Krishnaya hitam bhuya, Krishnasya pachyam bhuya, Krishnaya pachyam bhuya. Sarvatra ashirathe, etadarthaihi yoge. So, when words meaning these are used, you have chaturthi vibhakti and shashti vibhakti. Ashishikim. Ashirathe eva itikimartham, devadattasya ayushyam asti. He has a long life.
This is not arthritis. This statement of a fact that he has long life does not let him have long life. So arthritis hayri nasti tarhi chaturthi na bhavati. Devadattasya iti chasti cheshe ityaneena chasti vibhakti bhavati. So you will not have chaturthi if it is not arthritis. Vyakhyanat sarvatra arthagrahanam. It says, the sutra gives a specific set of words. The sutra says, chaturthi chashishi, ayushya, madra, bhadra, kushala, sukha, artha, hita. So he specifies seven words. So, you can take those seven words and there can be chaturthi and shashti along with those seven words. How do we take, how do we know that should we take those particular words or their meanings also or their synonyms also? Is Vyakhyana. I commented that is the Bhashyakara. As per what the Bhashyakara says, everywhere for all these we can consider synonyms. Now again a question is, if we are considering synonyms, why does Pani say Madra and Bhadra? Ayushya Madra Bhadra Kushalakata Hitaihi Sushite. Madram Bhadram Iti Paryaya Padre. So they are synonyms of each other. Right? So if by all the words in the sutra we are considering synonyms, why does Panini, why should he say Madra and Bhadra? He tells one of them, the other one is taken as a synonym. Atayeva Uchyate, Madra Bhadra Yohum Paryayatva. Since they are synonyms of each other, Anyataraha Na Pathaniyaha. One of them can be skipped in the sutra. Panini need not have told both Madra Asava Bhadra Ityane Naiva Siddhati. If he had told either of them, it was enough. तथा विशिष्टतया नास्ति चतुर्थी इसका षष्ठी समुच्चय रचा चतुर्थी च इत्युक्ते च एंड व्हाट इति प्रश्ने षष्ठी इति अनुवर्तते षष्ठी विभक्ति भवति इति यू शुड से दैट बट Cha does not, I mean there are many cases where even without cha we take an anuvritti. So if there is shasti anuvritti, there can be shasti and chaturthi. So cha is not very very significant in this particular sutra. But since it is there, we can say chaturthi cha. Cha is an anything, shasti. Okay? That is the Shashti Vibhakti Prakaranam Mantra Samaskate. If there are some questions, we can start with something.